पुरस्तात् केशवः पातु चक्री जाम्बूनदप्रभः पश्चान्नारायणः शङ्की नीलजीमुतसन्निभः इन्दीवरदलश्यामो माधवोर्ध्वं गदाधरः गोविन्दो दक्षिणे पार्श्वे दन्वी चन्द्रप्रभुर्महान् उत्तरे हलभृद्विष्णुः पद्मकिञ्चल्कसन्निभः आग्नेयामरविन्दाभो मुसली मधुसूदनः त्रिविक्रमखड्गपाणिनैकृत्यां ज्वलनप्रभः वायव्यान् वामनो वज्री तरुणादित्यदीप्तिमान् ऐशान्यां पुण्डरीकाभः श्रीधरः पट्टसायुधः विद्युत्प्रभो ऋषिकेशः सभायां दिशि मुद्गरी हृत्पद्मे पद्मनाभो मे सहस्रार्कः समप्रभः सर्वायुधः सर्वशक्ति सर्वज्ञः सर्वतोमुखः इन्द्रगोपकसङ्काशः पाशहस्तोपराजितः सभायाभ्यन्तरं देहं व्याप्य दामोदरस्थितः एवं सर्वत्र मच्छिद्रं नाम द्वादशपञ्चरं प्रविष्टोऽहं न मे किञ्चित् भयमस्ति कदाचन भयन्नास्ति कदाचन ॐ नम इति।